So let's do little bit with speed. Vegena vadamaha.
Ekam dve trini chatvari chatvari.
Ekam dve trini chatvari
chatvari.
Pancha shat sapt asht. Navadash.
Navadash.
Ekadash dvadash.
Ekadash
dvadash.
Triyodash chaturdash.
Triyodash chaturdash.
Panchadash shodash.
Panchadash shodash.
Panchadash
saptadash ashtadash.
Saptadash ashtadash.
Navadash vimshatih.
Navadash
vimshatih.
Samichnam. So let's try. Bhagini, Vimala Bhagini, can you read all that?
Yes. Ekam. Ekam dve trini chatvari pancha shat sapta asta nava dash. Ekadash dvadash trayodash chaturdash panchadash shodash saptadash ashtadash navadash vimshatih.
Dhanyavadah bhagini. Sangeeta bhagini, can you read that?
Ekam dve trini chatvari panch shat sapt asht nav dash ekadash dvadash trayodash chaturdash panchadash shodash saptadash ashtadash navadash vimshatih.
समीचीनं धन्यवादः भगिनि. सुजाता भगिनि.
आम् आं भगिनि. एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः.
धन्यवादः भगिनि. नरेश महोदय, कैन यू रीड दैट?
एकम द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः.
धन्यवादः महोदय. भानुमति भगिनी, कैन यू रीड दैट प्लीज? भानुमति भगिनी.
हां भगिनी. एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः.
धन्यवादः भगिनि. परमेश्वरन् महोदय, पठितुं शक्नोति वा परमेश्वरन् महोदय? अस्तु. नैना भगिनी, नैना भगिनी, आर् यु देर्?
हलो हलो हलो. आई एम हियर, लेकिन मेरा म्यूट नहीं हुआ.
चिंता मास्तु भगिनी.
ओके. एकम एकम द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश
विंशतिः. धन्यवादः भगिनि. ओन्लि रमेश महोदय
एकं
द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तादश अष्टादश नवदश विंशतिः.
धन्यवादः महोदय. Now if I just remove that, can we all read, not read, just without looking at it, sarve melitva sankhya vadatu vadantu ekam
melitva
ekam
ekam dve त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश
द्वादश अष्ट अष्टादश षट् षोडश जस्ट् लिटल् अब्सर्वेशन्
द्वाविंशतिः
त्रयोविंशतिः
त्रयोविंशतिः
चतुर्विंशतिः
चतुर्विंशतिः
पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः
सप्तविंशतिः
अष्टाविंशतिः
अष्टाविंशतिः
नवविंशतिः
नवविंशतिः
त्रिंशत्
त्रिंशत्
एकत्रिंशत्
एकत्रिंशत्
द्वात्रिंशत्
द्वात्रिंशत्
त्रयस्त्रिंशत्
त्रयस्त्रिंशत्
चतुस्त्रिंशत्
चतुस्त्रिंशत्
पञ्चत्रिंशत्
पञ्चत्रिंशत्
षट्त्रिंशत्
षट्त्रिंशत्
अष्टात्रिंशत्
अष्टात्रिंशत्
नवत्रिंशत्
नवत्रिंशत्
चत्वारिंशत्
चत्वारिंशत्
धन्यवादः. सो इफ् वी हेव् टु ट्रान्स्लेट् नौ से 12 fruits. So it will go like Dvadash Phalani.
Dvadash Phalani.
Dvadash Phalani Santi. Can you hear them? सो बालकाः सो से 44 चत्वारिंशत् 44 लेखनी
चतुश्चत्वारिंशत्
लेखन्याः सन्ति. सो So let's practice little bit. Make one sentence each with any of the sankhya. So we can start with Vimla Bhagini.
अहम् एकं प्रश्नं पृच्छामि.
पृच्छतु भगिनि.
दट् इस् मै सेण्टेन्स्.
धन्यवादः. अहम् एकं प्रश्नं पृच्छामि. अस्तु, धन्यवादः. सङ्गीता भगिनि.
अहं विंशति नागर फलम् आनयामि.
अहं विंशतिः फलानि आनयामि. अस्तु, धन्यवादः भगिनि. सुजाता भगिनि.
आं भगिनि. द्वे खण्डोले द्वे फलानि सन्ति.
न श्रूयते भगिनि.
न श्रूयते.
बहु प्रतिध्वनि अस्ति भगिनि, न जानामि. क्षम्यतां भगिनि. भगिनि, ऐ हेव् टु म्यूट् यु फार् सम् रीज़न्. प्रतिध्वनि पुनः वदतु भगिनि.
खण्डोले द्वे फलानि सन्ति.
कण्डोले द्वे फलानि
सन्ति. फलद्वयम् अस्ति.
फलद्वयम् अस्ति. अदर्वैस् यु विल् हेव् टु यूस् द बट्
फलानि सन्ति.
वन् थिङ्ग् हियर् विच् इस् नाट् एक्स्प्लेन्ड् इन् दीस् स्लैड्स्. We will say ekah balakah. Ekam phalam, but that will become too confusing at this stage because this ekam dve treni sankhya also is follow the gender. So ekam phalam, एकं पुस्तकम्, एकः बालकः, एका बालिका, त्रयः चोराः, तिस्रः महिलाः, त्रीणि चित्राणि. सो वाट् ऐ विल् सजेस्ट्, यू केन् लीव् द फस्ट् त्री sankhya, one, two and three. After that it's it will follow the same. Raman, Parmeshwaran Mohde, are you able to make a sentence?
मम हस्ते पञ्च अङ्गुल्यः सन्ति.
समीचीनं. मम हस्ते
पञ्च अङ्गुल्यः सन्ति.
धन्यवादः महोदय. नरेश महोदय. Naresh Mohde, are you able to make a sentence? We can move on to the next subject. If it's
Bagini?
What is the Bagini?
Auto Yane Tri Chakrika Asti
Chakran.
Oh,
whether it is correct or not, I don't know.
Auto, what is called auto? It's called Tri Chakrika, right?
Tri Chakrika.
Like Tri Chakrika. Tri Chakrika is a bike. Is a bike.
Oh.
Tri Chakrika.
Excuse me?
Yes.
अहं विमला. केन् यू से समथिङ्ग्?
श्योर् श्योर् ऐ एम् वेटिङ्ग्.
त्रीणि चक्राणि सन्ति. त्रीणि
त्रीणि चक्राणि सन्ति.
त्रीणि चक्राणि सन्ति.
सो वै त्रीणि? बिकोस् इट्स् अ न्यूटर् त्रीणि चक्राणि इति. फस्ट् आफ् आल् वि विल् डू द टैम् एस् वेल्. समयः कः? अद्य वयं समयविषये पठामः. सर्वे म्यूट् करोतु कृपया. धन्यवादः. सो वि जस्ट् रेड् द संख्या. एकवादनम्. एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश. सो वि रेड् द संख्या. नौ वि विल् डू द समयः. समयः एकवादनम्. सो वेन् वि एड् वादनं टु द एण्ड् देट् इस् इदानीम् एकवादनम्. एकवादनं द्विवादनं त्रिवादनं चतुर्वादनम् अस्तु. पञ्चवादनं षड्वादनं. सो वि विल् हेव् द समयः. वि विल् चेक् हौ टु tell the time. So first of all, let me get the samaya. Ekam ekshamitam. Let me start the clock. That's why I'm taking time. So सो घटी दृश्यते वा घटी दृश्यते
आं भगि
आम्
अद्या एकं कः समयः एकवादनम् कः समयः
द्विवादनम्
कः समयः
त्रिवादनम्
कः समयः
चतुर्वादनम्
कः समयः
पञ्चवादनम्
षट्वादनम्
कः समयः
सप्तवादनम्
इदानीं कः समयः
अष्टवादनम्
अष्टवादनम् इदानीं कः समयः
नववादनम्
कः समयः
दशवादनम् एकादशवादनम्
एकादशवादनम्
अष्टवादनम्
द्वादशवादनम्
इदानीं यदि अहम् अत्र
नववादनम्
एकवादनं सार्ध
दशवादनम्
भगिनि सार्ध एकवादनम् स प्लस् अर्ध सार्ध एकवादनम् अवगतं वा इदानीं कः समयः
सार्धद्विवादनम्
सार्धद्विवादनम्
धन्यवादः इदानीं कः समयः
सार्धत्रिवादनम्
अस्तु इदानीं कः समयः
सार्धचतुर्वादनम्
कः समयः
सार्धनववादनम्
द्वादशवादनम् यदि 15 मिनिट्स् अस्ति
द्वादशवादनम्
सपाद भवान् वदतु नरेश महोदय भवान् समयः कः समयः नरेश महोदय अस्ति वा
Yeah.
lot of disturbances there, so this is everybody should move, everybody should move it.
सपाद चतुर्वादनम्
सपाद चतुर्वादनं धन्यवादः अस्तु इदानीं कः समयः भानुमती भगिनी कः समयः
अर्धपञ्चवादनं
सार्ध
सार्धपञ्चवादनं
धन्यवादः सार्धपञ्चवादनं
पञ्चवादनं
धन्यवादः भगिनि सो इति सार्ध सपाद सपाद पाद इस् क्वार्टर् एण्ड् अर्ध स अर्ध सार्ध पञ्चवादनं सपाद पञ्चवादनं सपाद चतुर्वादनम् वाट् इस् द टैम् कः समयः न इदानीं कः समयः अस्ति कः समयः पादोन पादोन चतुर्वादनं इदानीं कः समयः सुजाता भगिनी वदतु
पादोन षड्वादनं
पादोन षड्वादनं धन्यवादः भगिनि धन्यवादः भगिनि म्यूट् करोतु धन्यवादः अस्तु सो पादोन षड्वादनम् इदानीं कः समयः अस्ति परमेश्वरन् महोदय वदतु परमेश्वरन् महोदय कः समयः अस्ति
पादोन नववादनम्
भवान् नववादनम् अस्ति वा
पादोन अष्टवादनं सम्यक्
पादोन अष्टवादनम् अस्तु यदि समयः अत्र अस्ति पञ्चाधिकपञ्चवादनम् इदानीं कः कथं समयः वदामि अहं पञ्चाधिकपञ्चवादनं पञ्चाधिक दशाधिक् ओर् इफ् इट् इस् लैक् दिस् पञ्च न्यून पञ्चन्यूनः पञ्चवादनम् सो लेट्स् प्राक्टिस् लिटल् बिट् हियर् सार्ध त्रिवादनं सपाद सप्तवादनं पादोन त्रिवादनम् अस्तु पञ्चाधिकद्वादशवादनं पञ्चन्यूनत्रिवादनं अस्तु 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 वदतु महोदय, विमला भगिनी वदतु कः समयः अस्ति, कः समयः, क्षम्यतां, कः समयः अस्ति?
पञ्चन्यूनषड्वादनम्।
पञ्चन्यूनषड्वादनम्। धन्यवादः भगिनि। नैना भगिनी वदतु कः समयः?
पञ्च अधिकं सप्तवादनम्।
पञ्चाधिक,
पञ्चाधिक, ओ सोरि, पञ्चाधिक, पञ्चाधिक सप्तवादनं, सोरि,
पञ्चाधिक सप्तवादनम्। अस्तु, धन्यवादः। अस्तु, कोऽपि सङ्गीता भगिनी? नववादनम्। इदानीं कः समयः?
पञ्चाधिकनववादनम्।
धन्यवादः भगिनि। नरेश महोदय वदतु कः समयः अस्ति?
पञ्चाधिकनववादनम्।
सपादनववादनम्। घटे दृश्यते वा?
नववादनम्।
धन्यवादः। भानुमति भगिनी अस्ति वा?
हा, अस्ति भगिनि।
इदानीं कः समयः? इदानीं कः समयः?
सपाद एकादश,
सपाद एकादशवादनम्। एकादशवादनम्। इदानीं भगिनी कः समयः अस्ति? परमेश्वरन् महोदय,
सार्ध एकादशवादनम्।
पादोन
द्वादशवादनम्।
पादोन रमेश महोदय कः समयः अस्ति? रमेश महोदय कः
समयः?
पादोन त्रिवादनं। धन्यवादः महोदय। अस्तु, नैना भगिनी कः समयः अस्ति? नैना भगिनी,
सार्धपञ्चवादनम्।
धन्यवादः भगिनि। विमला भगिनी कः समयः?
पञ्चाधिकपञ्चवादनम्।
धन्यवादः भगिनि। अस्तु, सुजाता भगिनि?
आं भगिनि,
पञ्चन्यूनपञ्चवादनम्। अस्तु अस्तु भगिनि, पञ्चन्यून। अस्तु, इदानीं सङ्गीता भगिनी वदतु कः समयः?
पादोन् पञ्चवादनम्।
पादोन् पञ्चवादनम्, अस्तु। नरेश महोदय, कः समयः अस्ति? नरेश महोदय, कः समयः अस्ति?
I am hearing, but the clock is not moving, it is still. The watch, clock is not moving. Yes.
No, I...
Panchashunyam, Panchashunyam, Panchasti.
Pancha? No, Kati Drishyate va, Bhagi? Mohde? Screen, can you see the screen? Is it visible?
Yes, I am seeing this, watching the surface. Mm-hmm. But...
So you can, so just a training clock. So you can see the time here in black and here in analog watch. Is it visible?
Yes, it is visible.
Mm-hmm. Sorry, I didn't understand your question. What is stationary? So it's a manual. I'm moving it with my mouse only. So it's okay. Are you able to answer what is the time now? Kaha samayaha?
पञ्चाधिक
पञ्चाधिक चतुर्वादनम्। अस्तु, धन्यवादः महोदय। अस्तु, नेक्स्ट् सब्जेक्ट् वि विल् डु अद्य शुक्रवासरः।
भगिनि, ऐ हेव् वन् क्वेश्चन्। Begin, it's not chatvari, right? It's chaturvadanam, like that, right?
Mm-hmm.
Can we say chatvari too?
No, that would be wrong.
Bhagini, chaturvadanam. Lot of echo. Please mute everybody.
There is a... Everybody is muted apart from... I think everybody is muted already. So, astu. Yeah, Bhagini, chatvari would be wrong here. It is chaturvadanam. Chatur, because it's some sandhi rule, chatur goes like chatuhu vadanam. So then that is what that converted into refa. But we won't go into too much detail how sandhi rules work. It will be chaturvadanam. You will memorize it in no time. It's not too bad. So now we will, before we go to Bahuvachanam, we will do the days of the week. I don't think we have slides for that. It doesn't show, but it makes sense to do the... so forget about the slides now, just listen. अद्य शुक्रवासरः, अद्य शुक्रवासरः, श्वः शनिवासरः, अद्य शुक्रवासरः, श्वः शनिवासरः, यः वीरवासरः, बृहस्पतिवासरः, यः बृहस्पतिवासरः, अद्य शुक्रवासरः, श्वः शनिवासरः, यः बृहस्पतिवासरः, परश्वः सोमवासरः, क्षम्यतां, परश्वः रविवासरः, ह्यः शुक्रवासरः, श्वः शनिवासरः, परश्वः रविवासरः. ह्यः शुक्रवासरः, श्वः शनिवासरः, परश्वः रविवासरः. पर श्वः सोमवासरः. अवगतम्? ह्यः शुक्रवासरः. शुक्रवासरः कदा? शुक्रवासरः कदा? अद्य शुक्रवासरः.
भगिनी, नथिङ्ग् इस् विसिबल्
बिकास् देर् इस् नो स्लैड्स् फोर् देट्. वी डोण्ट् have slides. Maybe it's shown somewhere else, so I'm just teaching because it makes sense to teach the days of the week at the same time. So adhya shukravasra. Shwaha chanivasra ha kada?
Shwaha
chanivasra.
श्वः शनिवासरः. रविवासरः कदा? परश्वः रविवासरः. सोमवासरः कदा?
परश्वः
सोमवासरः.
सोमवासरः.
ह्यः
गुरुवासरः.
ह्यः गुरुवासरः. बृहस्पतिवासरः. ह्यः वीरवासरः. ह्यः गुरुवासरः. परह्यः बुधवासरः. परह्यः मङ्गलवासरः. शुक्रवासरः कदा?
अद्य शुक्रवासरः.
शनिवासरः कदा?
श्वः
शनिवासरः.
गुरुवासरः कदा?
ह्यः गुरुवासरः.
ह्यः गुरुवासरः. बुधवासरः कदा?
परह्यः
गुरुवासरः.
अद्य शुक्रवासरः. ह्यः गुरुवासरः. परह्यः बुधवासरः. परह्यः मङ्गलवासरः. अद्य सोमवासरः. कल्पना करोतु, अद्य सोमवासरः. विमलभगिनी, शुक्रवासरः कदा? अद्य सोमवासरः. अद्य सोमवासरः. शुक्रवासरः कदा?
परश्वः
शुक्रवासरः. अद्य सोमवासरः. परश्वः मङ्गलवासरः. परश्वः बुधवासरः. परश्वः बुधवासरः. अद्य सोमवासरः. ह्यः रविवासरः. परह्यः शनिवासरः. परह्यः शुक्रवासरः. कल्पना करोतु, अद्य शनिवासरः. अद्य शनिवासरः. सङ्गीता भगिनी वदतु, मङ्गलवासरः कदा?
अद्य मङ्गल् अद्य
अद्य मङ्गलवासरः
ओके
अद्य मङ्गलवासरः शनिवासरः कदा
अद्य मङ्गलवासरे पर 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 या शनिवासरे
अस्तु धन्यवादः अद्य अद्य मङ्गलवासरः ह्यः ह्यः अद्य मङ्गलवासरः ह्यः सोमवासरः परह्यः रविवासरः परपरह्यः शनिवासरः धन्यवादः भगिनि सुजाता भगिनि अद्य 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 मङ्गलवासरः भगिनी पूर्णं वदतु अद्य अद्य मङ्गलवासरः श्वः कः परश्वः कः परपरश्वः कः पूर्णं वदतु
எனக்கு கூட எனக்கு தெரிய வரல
சம்பதி சுஜாதா பகினி அத்திய 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 புத்த வாசரா अद्य बुधवासरः कल्पना करोतु पूर्णं वदतु श्वः कः परश्वः कः परपरश्वः कः ह्यः कः परह्यः कः परपरह्यः कः पूर्णं वदतु
अद्य बुधवासरः व्यः मङ्गलवासरः परह्यः सोमवासरः प्रपरह्यः
भानुवासरः अपि धन्यवादः और श्वः कः
श्वः
परश्वः गुरुवासरः
परश्वः शुक्रवासरः प्रपरश्वः शनिवासरः
धन्यवादः अस्तु इदानीं भानुमती भगिनी अस्ति वा अद्य शुक्रवासरः पूर्णं भगिनी न श्रूयते
अस्ति भगिनि
अस्मि
अस्ति भगिनि
अस्मि भगिनि अद्य अद्य शुक्रवासरः
भगिनि
श्रूयते वा अद्य शुक्रवासरः
भगिनि
वदतु भगिनि वदतु भगिनि न श्रूयते
beginning I'm not able to hear
so adya shukravasra
oh
can you hear me now adya shukravasra adya adya kaha shukravasra kada
bagini na shuyate
अस्तु ऐ विल् कम् बेक् टु यु लेटर् भगिनि ऐ डोण्ट् नो वट् इस् द प्रोब्लम्
अद्य शुक्रवासरः
अद्य शुक्रवासरः शुक्रवासरः कदा
हां भगिनि
अस्तु परमेश्वरन् महोदय अद्य
शुक्रवासरः
अद्य शुक्रवासरः धन्यवादः भगिनि परमेश्वरन् महोदय अस्ति वा अद्य अद्य शुक्रवासरः, पूर्णं वदतु, श्वः कः, परश्वः कः, परपरश्वः कः, ह्यः कः, पूर्णं वदतु.
अद्य शुक्रवासरः, श्वः शनिवासरः, परश्वः रविवासरः, परपरश्वः सोमवासरः, ह्यः गुरुवासरः, परह्यः बुधवासरः, परप्रह्यः मङ्गलवासरः.
धन्यवादः, समीचीनं. शनिवासरः कदा?
श्वः.
ह्यः? ओ, ह्यः. अद्य शुक्रवासरः, श्वः शनिवासरः. धन्यवादः महोदय, समीचीनम्. अस्तु, सो सर्वे अवगतं किं? रमेश महोदय अस्ति वा? अद्य म्यूट् करोतु सर्वदा. अस्तु, भवान् वदतु, अद्य मङ्गलवासरः.
श्वः बुधवासरः, परश्वः गुरुवासरः, प्रपरश्वः शुक्रवासरः, प्रपरः शनिवासरः.
धन्यवादः, धन्यवादः. अस्तु, सो ऐ एम् अस्यूमिङ्ग् दट् एव्रिबडि गोट् इट्. नैना भगिनी, मे बी वन्स् मोर् यू केन् से, अद्य शनिवासरः.
अद्य शनिवासरः, श्वः रविवासरः, परश्वः सोमवासरः, प्रपरश्वः मङ्गलवासरः. अद्य शनिवासरः, रे? अद्य शनिवासर बोलत्,
अद्य शनिवासरः,
ह्यः शुक्रवासरः, परयः गुरुवासरः, प्रपरयः बुधवासरः.
धन्यवादः भगिनि. अस्तु, नेक्स्ट् टापिक् वि विल् डू सम् बहुवचनं. बहुवचनं रामः, रामाः, रामाः सन्ति, सीता, सीताः, लेखनी, लेखन्यः, वनं, वनानि, पत्रं, पत्राणि, पुष्पं, पुष्पाणि. सो वि विल् डू सम् अभ्यासम्. ऐ एम् अस्यूमिङ्ग् दट् मोस्ट् आफ् यू डू नो दीस् ओरेडि. सो वी हेव् डन् दीस् प्रोनौन्स् बिफोर्. सः, सा, तत्, कः, का, किम्. सः बहुवचनं किं? सः, ते, सा, ताः, तत्, तानि. कः, के, का, काः, किं, कानि. एषः, एते, एषा, एताः, एतत्, एतानि. भवान्, भवन्तः, भवती, भवत्यः, अहं, वयम्. अस्तु, दिस् अस्तु. सो नौ वि विल् डू सम् अभ्यासः. सो लेट्स् सी, are you able to see this screen? So what we will do, saha kaha, saha syutah, te ke, te syutah. So that is the abhyas we are going to do, te syutah. सः कः? सः चोलाः, सः चोलः. ते के ते चोलाः ते चोलाः अस्तु
नहीं दृश्यते भगिनी
न दृश्यते
न
श्रूयते वा किन्तु
श्रूयते
अस्तु स्लैट्लि बिगर् करोमि स्क्रीन् दृश्यते वा फलकं दृश्यते वा न फलकं न दृश्यते चित्रं न दृश्यते
चित्रं न दृश्यते
चित्रं न दृश्यते अहं बहु अस्तु
I don't know. Maybe for me, I don't know.
Chintram drishyate bhagini.
Is it better now? Te ke saha kaha saha balakaha. Bhagini, prichatu. Bahu vachnam prichatu. सः कः सः बालकः अस्तु
सः कः सः बालकः दृश्यते भगिनी अहं
क्षम्यताम् अस्तु दृश्यते न सः कः
भगिनी
अस्तु भगिनी बहुवचनं करोतु बहुवचनं सः कः सः बालकः वाक्यद्वयं वदतु ते के
बालकाः
ते बालकाः अस्तु नैना भगिनी सः कः सः मार्जरः
सः मार्जरः
हा बहुवचनं वदतु भगिनि सः कः ते
के ते के ते मार्जराः
ते मार्जराः धन्यवादः नेक्स्ट् रमेश महोदय रमेश महोदय
सः कः सः रथः
बहुवचनं वदतु
ते के ते रथाः
धन्यवादः ते के ते रथाः अस्तु विमला भगिनी एषः कः
एषः मन्थानः ते के ते मन्थानाः
अस्तु एषः कः एते के एषः बिकम्स् एते
ओके एते के एते मन्थानाः
एते मन्थानः एते के एत मन्थानः
प्लूरल्
मन्थानाः अस्तु एषः कः एषः मकरः अस्तु सङ्गीता भगिनी वदतु सङ्गीता भगिनी वदतु एषः कः एषः मकरः बहुवचनं वदतु भगिनि अस्तु न श्रूयते
एते मकराः
एते मकराः समीचीनं भगिनि ओके परमेश्वरन् महोदय नेक्स्ट् वन् एषः वैद्यः एषः कः
एषः कः एषः वैद्यः
एते के एते वैद्याः
समीचीनम् एते के एते वैद्याः वैद्याः भानुमति भगिनी
आं भगिनि एषः कः एषः शुनकः एते के एते शुनकाः
समीचीनम् एते शुनकाः
भगिनि
वदतु भगिनि एते के एते शुनकाः नरेश महोदय
एते शुनकाः
शुनकाः इट्स लोङ्गा क्षम्यताम्
शुनकाः
नरेश महोदय अस्तु नरेश महोदय नास्ति अत्र दीपः एषः एषः कः एषः नैना भगिनि
एषः दीपः एते के एते दीपाः
धन्यवादः भगिनि रमेश महोदय
सः विद्युद्दीपः
सः कः सः विद्युद्दीपः बहुवचनं किं
ते के ते विद्युद्दीपाः
समीचीनं महोदय अस्तु सो देट् इस् अ बहुवचनं देट् वी कुड् डू नेक्स्ट् वी विल् ट्रै वित् सम् अस्तु सर्वे पुल्लिङ्गः शब्दः अपि अस्ति अस्तु विमला भगिनी प्रश्नं पृच्छतु
एषः कः
उत्तरमपि ददातु
एषः एषः पादः
एषः कः एषः पादः
एते के एते पादाः
समीचीनम् नेक्स्ट् इस् सङ्गीता भगिनी
एषः क एषः दर्पणः एते के एते दर्पणाः
समीचीनम् सुजाता भगिनी
आं भगिनि सः पर्वतः सः कः सः पर्वतः ते के ते पर्वताः
समीचीनं परमेश्वरन् महोदय नेक्स्ट् वन्
सः 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 चमसः ते के ते चमसाः
भगिनि देट् इस् नोट्
सः कः
क्षम्यताम् अस्तु अत्र वदतु भगिनी वदतु चषकः
सः कः
सः कः सः सः कः सः चषकः बहुवचनं वदतु भगिनि भगिनी बहु
चषकाः
ते के ते चषकाः समीचीनं सो नौ वि अण्डर्स्टेण्ड् द बहुवचनम् एण्ड् हौ टु टु प्रश्नवाचकशब्दः अपि अभ्यासं कुर्मः नपुंसकलिङ्गशब्दः ते तत् किं तत् विमानं तत् किं तत् विमानं तानि कानि तानि विमानानि तत् किं तत् विमानं बहुवचनं कथं करणीय तानि कानि तानि कानि तानि विमानानि अस्तु अस्तु रमेश महोदय प्रश्नं पृच्छतु
तत् किं तत् पुस्तकं तानि कानि तानि पुस्तकानि
समीचीनम् विमला भगिनी
तत् किं तत् लोकयानं तानि कानि तानि लोकयानानि
समीचीनं सङ्गीता भगिनी
तत् किं तत् नेत्रं तानि कानि तत्र तानि तानि नेत्राणि
और नयनं नयनानि अस्तु सुजाता भगिनी
आं भगिनि एषः यजनं ये एषः कः एषः यजनं
भगिनी व्यजनं
न न क्षम्यतां भगिनी तत् किं तत् व्यजनं तानि कानि तानि व्यजनानि
अस्तु अत्र एतत् किम् एतत् व्यजनम् एतानि कानि एतानि व्यजनानि
क्षम्यतां भगिनि
एतानि चिन्ता मास्तु भगिनि चिन्ता मास्तु अस्तु परमेश्वरन् महोदय
एतत् किम् एतत् ऊरुकम् एतानि कानि एतानि ऊरुकानि
समीचीनम्
ऊरुकानि
भवान् सर्वाणि जानाति सर्वे पण्डिताः अस्ति अत्र सर्वे पण्डिताः सन्ति
किञ्चित् किञ्चित् जानामि
मम कक्षायां सर्वे पण्डिताः सन्ति अनुमति भगिनि सर्वे छात्राः सन्ति
धन्यवादः भगिनि
भगिनी वदतु भानुमति भगिनि
तत् किं तत् पुष्पं तानि कानि तानि पुष्पाणि
समीचीनं
तानि कानि तानि पुष्पाणि
तानि कानि तानि पुष्पाणि सो पत्रं दलं पर्णम् एतत् एतत् किम् एतत् पत्रम् एतानि कानि एतानि पत्राणि अस्तु जलं वातायनं द्वारं नगरं सेफलं सो यु गो थ्रू दीस् स्लैड्स् आफ्टर्वर्ड्स् and try to do all the prashnavachak shabdah in bahuvachanam so what we will do the next is next step is that we will have the so we what we have done today we have done the time samayah we have done the सप्ताह नाम सप्ताह दिनानि then we have done the counting so we will what we will do is let's do one of the songs now and that will fix in our mind the things that we have studied today how do we do this ekam ekam dve
ekam dve ekam dve
ekam dve
पश्यतु किम् अस्ति मम हस्ते
पश्यतु किम् अस्ति मम
हस्ते
एकं द्वे पश्यतु किम् अस्ति मम हस्ते
एकं द्वे पश्यतु किम् अस्ति मम हस्ते
किमस्ति मम हस्ते
त्रीणि चत्वारि
त्रीणि चत्वारि
हस्ते पात्रं वारे पात्रं पात्रे वारे
हस्ते पात्रं पात्रे वारे
त्रीणि चत्वारि हस्ते पात्रं पात्रे वारे
त्रीणि चत्वारि
पञ्च षड्
जम्बीररसं योजयत् सप्त अष्ट लवणं गुड़ च मिश्रयत् सप्त अष्ट लवणं गुड़ं च मिश्रयत् नवदश शनैः मन्थत स्वादुपानकं सिद्धं रे
स्वादुपानकं सिद्धं रे
मिलित्वा वयं पिबामरे समीचीनं सर् एनिबडि नोस् द मीनिङ्ग् आफ् दट् बिकास्
एकं द्वे वन् टु वन् टु पश्यतु लुक् इन् मै हेण्ड् हस्त मम हस्ते देर् इस् अ पाट् इन् मै हेण्ड् त्रीणि चत्वारि त्रि फोर् न पश्यतु किमपि मम हस्ते केन् यु सी वाट् इस् देर् इन् मै हेण्ड् त्रि फोर् हस्ते पात्रं हाथे पात्र हाथ में एक वेसल है एंड वेसल में देर इज वाटर वारी षष्ट पंचषष्ट जांबीरसम योजयत् जांबीरसम इज लेमन आई डोंट नो व्हाट या जांबू फलम आई डोंट नो सम रसम यू आर पुटिंग सम जूस फ्रूट जूस इन
अग्नि योर वॉइस इज नॉट ऑडिबल
ओके आई डोंट नो व्हाट टू डू सप्त अष्ट 7 8 7 8 लवणं गुडं च मिश्रवत् लवणं इज साल्ट् गुडं इज जागरी साल्ट् एण्ड् जागरी इज बीङ्ग् मिक्स्ड् नवदश एण्ड् शनैः मन्थात् शनैः स्लोलि इट् इस् बीङ्ग् चर्ड् स्वादु स्वादिष्टेस्ति पानकं सिद्धं रे यानि वाला अच्छा होगा क्या कुछ
नो नो पानकं इज रेडी पानकं इज समथिंग दैट इज टू ड्रिंक
पानकं मींस जूस लाइक अ लेमन जूस वी से नो लाइक दैट द जूस ऑफ दैट
yeah pandika is something that's a bit drunk some drinking
so tasty drink is ready
yeah
militva we vayam means together milkar we will be drinking it
samichanam so it's quite nice song but I am a little bit don't want to sing yeah I like singing but I don't like singing. So astu atra eva sagatam karim purishyamaha
bagini
ha what is the bagini
jambir rasam matlab
is lemon jambir rasam lemon juice
lemon
yeah
jambu phal
any doubt if you have in terms of looking for the vocabulary always look at the spokensanskritam.org
org okay
org yeah. So always look at that it can you can type in English or Sanskritam whatever language you can do it will translate both ways सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः
सर्वे सन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे
भद्राणि
पश्यन्तु
धन्यवादः
पुनः मिलामः
धन्यवादः
धन्यवादः भगिनि